इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्याः वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन असमराज्यस्य मुख्यमन्त्रिणा हिमन्त विश्व शर्मावर्येण, सिक्किम राज्यस्य मुख्यमन्त्रिणा प्रेमसिंह तमंगेन च सह पूर्वोत्तरे प्रचण्डवृष्ट्या जलावस्थितिमालक्ष्य विषये वार्तां विहितवान्। उत्तरप्रदेशस्य मन्त्रिमण्डलेन अग्निवीराणां कृते राज्यारक्षिविनियोजने प्रान्तीय सशस्त्र सैनिकदले अग्निशमन सेवायां च प्रत्यक्ष नियुक्तौ 20% आरक्षणं प्रदातुं स्वीकृति प्रदत्ता। महाराष्ट्रराज्यस्य शिक्षामन्त्री श्री दादाभूसे अद्य उद्घोषयत् यत् राज्ये प्रथमश्रेण्या छात्राणां कृते मूलभूत सैन्य प्रशिक्षणं शीघ्रं प्रवर्तयिष्यते। भारतं ब्राजील देशस्य ब्रासिलियायाम् आयोजिते 11वें ब्रिक्स संचार मन्त्रिणां सम्मेलने समावेशीयं सततं च भविष्योन्मुखं डिजिटल इति अन्तर्जालीय पटलस्य विकासं प्रति स्वप्रतिबद्धतां पुनः प्रकटितवान्। जकार्तायां क्रीड्यमाणे इण्डोनेशिया बैडमिण्टन ओपन स्पर्धायां महिला एकलवर्गे बैडमिण्टन क्रीडिका पीवी सिन्धु जापानस्य नोजोमी ओकुहारा इत्यमुं प्रथमे चक्रे पराजितवती। अपि च आईपीएल 20-20 क्रिकेट क्रीडा स्पर्धा मालिकायां अद्य रॉयल चैलेंजर्स बेंगलुरु पंजाब किंग्स दलयो मध्ये अहमदाबादस्य नरेन्द्र मोदी क्रिकेट क्रीडांगणे स्पर्धा भविष्यति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन असमराज्यस्य मुख्यमन्त्रिणा हिमन्त बिस्व शर्मावर्येण च सिक्किमराज्यस्य मुख्यमन्त्रिणा प्रेमसिंह तमंगेन सह पूर्वोत्तरे प्रचण्डवृष्ट्या जलावस्थितिमालक्ष्य विषये वार्तां विहितवान्। श्रीमोदी प्रभाविराज्यानां कृते सम्भाव्यसहयोगस्य समर्थनस्य च आश्वासनं प्रख्यापितवान्। असमराज्यस्य मुख्यमन्त्री हिमन्त बिस्व शर्मा अन्तर्जालीय पटल सन्देश माध्यमेन भणितं यत् प्रधानमन्त्रिणा असमराज्ये जलावस्थिति इति विषये सूचनां प्राप्तुं दूरभाष माध्यमेन तेन सह परिचर्चां विहितम्। हिमन्त बिस्व शर्मा तं सूचितवान् यत् असमराज्ये निरन्तरं वर्षा कारणात् जलाप्लावन अभवत्, सममेव एतेन बहवः जनानां जीवनं प्रभावितं जातमस्ति। राज्यप्रशासनेन चालितस्य उद्धाराभियानस्य विषये अपि सः तं सूचितवान्। अपरतः सिक्किम राज्यस्य मुख्यमन्त्री प्रेमसिंह तमंगः सिक्किम राज्ये भूस्खलनस्य जलप्रलयस्य च स्थिति विषये प्रधानमन्त्रिणः चिन्तायाः समर्थनस्य च कृते धन्यवादं प्रदत्तवान्। सः अवदत् यत् प्रशासनं स्थितिं सम्पादयितुं प्रभावितजनेभ्यः सहायतार्थं च पूर्णतया प्रतिबद्धः अस्ति। अद्य उत्तरप्रदेशराज्यस्य मन्त्रिमण्डलेन एकस्मिन् अग्निपथ योजनान्तर्गतं सेवानिवृत्तानाम् अग्निवीराणां कृते राज्यारक्षिविनियोजने प्रान्तीय सशस्त्र सैन्यदले अग्निशमन सेवायां च प्रत्यक्ष नियुक्तौ 20% आरक्षणं प्रदातुं स्वीकृति प्रदत्ता। एषः निर्णयः मुख्यमन्त्री योगी आदित्यनाथस्य अध्यक्षतायाम् आयोजितायां मन्त्रिमण्डलीयोपवेशने स्वीकृतः। राज्ये सैन्यसेवानन्तरं युवभ्यः समुचितं सेवावृत्तिः सुलभः स्यात् इति लक्ष्यं दृष्ट्वा अयं निर्णयः कृतः। मन्त्रिपरिषदमन्त्री श्रीसुरेशखन्ना महाभागेन विज्ञापितं सैन्यसेवां समाप्य सेवानिवृत्ताः ये अग्निवीराः सन्ति तेषां कृते राज्यारक्षि च प्रान्तीयशस्त्रसेनायां 20% आरक्षणं भविष्यति।
कैबिनेट के समक्ष जो प्रस्ताव आया है एक्स अग्निवीर को समायोजित करने के लिए उत्तर प्रदेश पुलिस आरक्षी पीएसी आरक्षी घुड़सवार और फायरमैन की सीधी भर्ती में 20% पदों पर आरक्षण देने के संबंध में उत्तर प्रदेश ने की आज मंत्रिपरिषद ने 20% हॉरिजेंटल आरक्षण देने का आज फैसला किया है। ये अपने आप में एक बहुत बड़ा फैसला है।
संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषी तन्त्रांशे अपि उपलब्धो भविष्यति। महाराष्ट्र राज्यस्य शिक्षामन्त्री श्री दादाभूसे अद्य उद्घोषयत् यत् राज्ये प्रथमश्रेण्याः छात्राणां कृते मूलभूत सैन्य प्रशिक्षणं शीघ्रं प्रवर्तयिष्यते। मन्त्री भूसे अवदत् यत् अनेन छात्रेषु राष्ट्रसेवायाः भावनायाः अनुशासनस्य नियमित व्यायामस्य च विकासं भविष्यति। प्रशिक्षणाय क्रीडाशिक्षकाः राष्ट्रिय प्रशिक्षण सदस्याः अन्वेषक मार्गदर्शकाः सेवानिवृत्ताः सैनिकाः च प्रमुखं योगदानं प्रदास्यन्ति। भारतं ब्राजील देशस्य ब्रासिलियायाम् आयोजिते 11वें ब्रिक्स संचार मन्त्रिणां सम्मेलने समावेशीयं सततं च भविष्योन्मुखं डिजिटल इति अन्तर्जालीय पटलस्य विकासं प्रति स्वप्रतिबद्धतां पुनः प्रकटितवान्। अस्मिन् समये अस्मिन् अवसरे संचार राज्यमन्त्रिणा डॉ पेमासानी चन्द्रशेखरेण भारतस्य डिजिटल सार्वजनिक अधोसंरचनां समावेशीकर्तुं वैश्विक मानक रूपेण प्रस्तुतम्। सः ब्रिक्स राष्ट्रेभ्यः आह्वानं कृतवान् यत् डिजिटल सार्वजनिकाधारस्य उपयोगेन समावेशी विकासं सुदृढीकर्तुम् आह्वानं कृतवान्। केन्द्रीय मन्त्री डॉ जितेन्द्र सिंह प्रोक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी जम्मू कश्मीरे चिनाब सेतुः जून मासस्य षड् दिनांके उद्घाटनं करिष्यति। सिंह महोदय सोशल अन्तर्जालीय पटल सन्देश माध्यमेन प्रोक्तवान् यत् चिनाब सेतुः विश्वस्य सर्वोच्च रेल सेतुः जम्मू कश्मीरे नवभारतस्य शक्तेः दूरदर्शितायाश्च गौरवपूर्णं प्रतीकमस्ति। सः अवदत् यत् एषः सेतुः उधमपुर सिराज बारामूला रेल सम्बद्ध प्रकल्पस्य भागः अस्ति। एषः काठिन्यं प्राकृतिकं दुष्करं दूरीकर्तुं विनिर्मितम् अस्ति। अरुणाचलप्रदेशे अतिवृष्ट्या सम्पूर्णराज्ये सामान्य जीवनं बाधितम्। राज्य आपदा प्रबन्धन विभागेन संसूचितं यत् यः सायं यावत् अतिवृष्ट्या कारणेन द्वादश जनाः मृत्युमुपगताः। सम्प्रति साहाय्योद्धार कार्यं प्रचलति एव। वित्तमन्त्री निर्मला सीतारमण अद्य नवदिल्ल्यां राजस्व गुप्त निदेशालयस्य मुख्यालयस्य नवीन भवनस्य उद्घाटनं विहितवती। सभां सम्बोधितवती सा अवदत् यत् राजस्व गुप्त निदेशालयः राष्ट्रिय आर्थिक प्रकरणानां मुख्य संरक्षकः वर्तते। मादक द्रव्याणाम् अवैध व्यापार अथ च अन्य अवैध व्यापार इत्यादिभिः देशस्य संरक्षणे राजस्व गुप्त निदेशालयस्य भूमिकां प्रकाशयता सा प्रोक्तवती यत् भारतस्य राष्ट्रिय सुरक्षा व्यवस्थायां राजस्व गुप्त निदेशालय इति सुदृढ़ प्रभागत्वेन वर्तते। गतदिवसे बिहारस्य सिवान जनपदे तीव्रवातेन अतिवृष्ट्या च व्यापकं विनाशं संजातम्। अनेन कारणेन न्यूनातिन्यूनं सप्त जनाः मृताः। सम्प्रति राज्ये विविधाः ऋतुपरिस्थितयः दृष्टाः। पश्चिमोत्तरभागेषु तीव्रवृष्ट्या जनजीवनं बाधितम्। दक्षिणबिहारस्य जनपदाः तीव्रातापेन संघर्षं कुर्वन्ति। ऋतुविभागेन संचेतितं यत् आगामिषु अष्टचत्वारिंशत् होरासु किशनगंज सहरसा अररिया सीतामणि मुजफ्फरपुर इत्येतेषु जनपदेषु तीव्रवातः अतिवृष्टिः वज्रपातश्च भवितुम् अर्हति। अद्य श्रीलंकादेशस्य राष्ट्रपतिः अनुरा कुमारादिसानायकः कोलम्बो नगरस्य राजभवने ऑस्ट्रेलियादेशस्य उपप्रधानमन्त्रिणा रक्षामन्त्रिणा च साकं परिचर्चां कृतवान्। एषा परिचर्चा द्वयोः राष्ट्रयोः द्विपक्षीय सम्बन्धान् सुदृढीकरणाय आयोजिता। यस्य प्रमुखविषयः आसीत् समुद्रीय सुरक्षा। राष्ट्रपतिः दिशानायकः अवैधव्यापारे मानव पारगमने शस्त्राणाम् अवैधव्यापारस्य च समुद्रीय आतंकवादस्य निवारणाय संयुक्त प्रयासाय ऑस्ट्रेलियादेशस्य समर्थनाय कृतज्ञतां प्रकटितवान्। सममेव सः अवदत् यत् श्रीलंका पर्यटनाय निवेशाय च सुरक्षितं केन्द्रं भविष्यति इति राष्ट्रस्य दृढनिश्चयः अस्ति। एषा परिचर्चा द्वयोः राष्ट्रयोः मैत्रीभावनां सामरिक सहयोगं च परिपोषणाति, विशेषतः तत्समये यदा हिन्द महासागरीय क्षेत्रे सुरक्षां स्थापयितुं वैश्विकः संघर्षः वर्धमानः अस्ति। जकार्तायां क्रीड्यमाणे इण्डोनेशिया बैडमिण्टन ओपन स्पर्धायां महिला एकलवर्गस्य प्रथमे चक्रे बैडमिण्टन क्रीडिका पी वी सिन्धु जापानस्य नोजोमी योकोहारा इत्यमुं पराजितवती। पुरुषाणां युगलवर्गे सात्विक साईराज रंकी रेड्डी चिराग सेट्टी इण्डोनेशियायाः लियो रौली कार्नाडो वेगस मौलाना च पराजितवन्तौ। आईपीएल 20-20 क्रिकेट क्रीडास्पर्धा मालिकायाम् अद्य रॉयल चैलेंजर्स बेंगलुरु पंजाब किंग्स दलयो मध्ये अहमदाबादस्य नरेन्द्र मोदी क्रिकेट क्रीडांगणे स्पर्धा भविष्यति। इयं स्पर्धा सार्धसप्तवादने भविष्यति। मुख्यवार्ताः पुनरेकवारम्। प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन असमराज्यस्य मुख्यमन्त्रिणा हिमन्त विश्व शर्मावर्येण सिक्किम राज्यस्य मुख्यमन्त्रिणा प्रेम सिंह तमंगेन सह पूर्वोत्तरे प्रचण्डवृष्ट्या जलौघस्थितिमालक्ष्य विषये वार्तां विहितवान्। उत्तरप्रदेशस्य मन्त्रिमण्डलेन अग्निवीराणां कृते राज्यारक्षि विनियोजने प्रान्तीय सशस्त्र सैन्यदले अग्निशमन सेवायां च प्रत्यक्षनियुक्तो 20% आरक्षणं प्रदातुं स्वीकृतिः प्रदत्ता। जकार्तायां क्रीड्यमाणे इण्डोनेशिया बैडमिण्टन ओपन स्पर्धायां महिला एकलवर्गे बैडमिण्टन क्रीडिका पी वी सिन्धु जापानस्य नोजोमी योकोहारा इत्यमुं प्रथमे चक्रे पराजितवती।